येन धोता गिरः पुंसां विमलै शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॐ श्री गुरुभ्यो नमः
धन्यवादः भगिनि
नमस्कारः
धन्यवादः भगिनि सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र हलन्तपदानां स्त्रीलिङ्ग अपि नपुंसकलिङ्ग शब्दानां प्रथमाविभक्तिरूपाणि अस्मिन् विषये तत्र पाठं पठितवन्तः गतवर्गे तत्र त्रयोदशे पुटे तदनन्तरं तत्र किं वयं तत्र यत् पञ्चदशे पुटे तत्र अभ्यासमपि कृतवन्तः इदानीं तत्र अग्रे गच्छामः तत्र पुनः तत्र किञ्चित् पुनस्मरणार्थम् अपि अभ्यासार्थं तत्र विभक्तिरूपाणि एकवारं पठामः अतः तत्र प्रायः गतवर्गे तत्र नपुंसकलिङ्गपदानां रूपाणि एकवारं उक्तवन्तः इदानीं तत्र किञ्चित् मिश्रणं कुर्मः नपुंसकलिङ्ग अपि स्त्रीलिङ्ग यत् वयं बहुवारं न कृतवन्तः तादृशं पदं चित्वा तत्र वदामः मधु महोदय नमस्कारः
नमस्कारः महोदय
नमस्कारः महोदय अस्तु तर्हि तत्र स्वरूप महोदयस्य करपत्रे तत्र अस्तु शोभा भगिनी तत्र प्रथमतया तत्र किं साधारणरूपं कथम् अस्ति इति तत्र तत् प्रदर्शयित्वा अग्रे विशेषरूपाणि पश्यामः अतः भवती तत्र भवत् शब्दस्य एव वदति वा भगिनि
आं महोदय वदामि भवत् शब्दस्य
सर्वाणि
अस्तु भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः भवता भवद्भ्यां भवद्भिः भवते भवद्भ्यां भवद्भ्यः भवतः भवद्भ्यां भवद्भ्यः भवतः भवतोः भवतां भवति भवतोः भवत्सु हे भवन् हे भवन्तौ हे भवन्तः इति सम्बोधनम्
समीचीनं भगिनि अत्र किञ्चित् विवृणोतु तत्र भवद्भ्यां कति वारम् आगच्छति अपि भवतः कुत्र आगच्छति इति किञ्चित् विवृणोति वा
अस्तु आं महोदय तत्र भवतः इति द्वितीयविभक्तौ बहुवचने अपि च पञ्चमी अपि षष्ठी विभक्तयोः एकवचने आगच्छति अपि च भवद्भ्याम् इति त्रिवारम् आगच्छन्ति तृतीया चतुर्थी पञ्चमी द्विवचने आगच्छन्ति
त्रिवारम् आगच्छति
त्रिवारम् आगच्छति
एतद् रूपं त्रिवारम् आगच्छति अतः कर्तृपदम् एतद् रूपं
त्रिवारम् आगच्छति आं महोदय धन्यवादः भवद्भ्यः इति चतुर्थी अपि पञ्चमी विभक्तेः द्विवारं बहुवचने आगच्छति अपि च भवतोः इति षष्ठी सप्तमी विभक्तौ द्विवचने द्विवारम् आगच्छति अपि च भवन्तः तत्र सम्बोधन अधुना चर्चां न
कृतवन्तः अपि तत्र भवन्तौ इति तत्र
द्वितीयविभक्तिवचने भवन्तौ भवन्तौ इति द्विवारम्
आगच्छति अत्रापि तत्र समानरूपम् अस्ति समीचीनं भगिनि अपि तत्र तृतीया
तत्र द्विवचने एव बहुधा
हा सत्यं भगिनि सत्यं तत्र समानरूपं भवति सत्यं भगिनि तत्र यदि पश्यामः तत्र वणिजौ वणिजौ सुहृदौ सुहृदौ आत्मानौ आत्मानौ मरुतौ मरुतौ अतः तत्र यदि द्विवचने अस्ति तत्र कर्तृपदं वा कर्मपदं वा इति तत्र क्लेशः भवेत् इति मनसि स्थापनीयः सत्यं भगिनि. अस्तु, अपि तत्र तृतीयातः सप्तमी पर्यन्तं तत्र एकवचने तत्र रूपं कीदृशं भवति?
तत्र हलन्त तकार तकारान्त पदस्य तृतीया दीर्घ आकारः भवति, भवता इति भवति. चतुर्थी इत्यस्मिन् एकारः भवते इति भवति. पञ्चमी इत्यस्मिन् विसर्गसहिता भवतः भवतः इति भवति. अपि च सप्तमी ह्रस्व इकार अन्ते भवति इति भवति. एतानि हलन्तशब्दानां पुंलिङ्गहलन्तशब्दस्य कृते. अपि च स्त्रीलिङ्गे
स्त्रीलिङ्गे अपि नपुंसकलिङ्गे अपि
नपुंसकलिङ्गे अपि स्त्रीलिङ्गापि हलन्त अस्ति चेत्
एतदेव रूपम्. अतः तत्र नियमः तत्र साधारणनियमः, तत्र ऊहां कर्तुं शक्नुमः तृतीयातः सप्तमी पर्यन्तं तत्र एकवचने रूपं कीदृशम् इति प्रश्ने सति तत्र प्रातिपदिकं योगः किं तृतीया मध्ये दीर्घ आकारः, चतुर्थी मध्ये प्रातिपदिकं योगः एकारः,
पञ्चमी तत्र
प्रातिपदिकं योगः अह, अपि सप्तमी मध्ये ह्रस्वैकारः इति साधारणरूपं तत् यदि जानीमः तत्र आधिक्येन तत्र ऊहां कर्तुं शक्नुमः तत्र एतदेव रूपं भवेत् हलन्तपदस्य इति हलन्तप्रातिपदिकम् अस्ति चेत्. समीचीनं भगिनि, धन्यवादः. इदानीं तत्र इदानीम् अग्रे गच्छामः. तत्र एतत् साधारण अथवा सामान्यरूपम्, इदानीं तत्र विशेषरूपं तत्र क्लेशः कुत्र भवति इति अपि दृष्टवन्तः. तत्र प्रथमाविभक्तौ द्वितीयाविभक्तौ एव तत्र क्लेशः भवति. तत्र प्रथमाविभक्तौ द्वितीयाविभक्तौ तत्र यदि पश्यामः तत्र वयं न ज्ञातुं शक्नुमः तत्र हलन्तपदानां तत्र स्त्रीलिङ्ग वा स्त्रीलिङ्गपदं वा पुल्लिङ्गपदं वा इति. किन्तु नपुंसकलिङ्गपदम् अस्ति चेत् तत्र ज्ञातुं शक्नुमः, यतोहि तत्र रूपं भिन्नं भवति. तत्र उदाहरणार्थं तत्र उषा भगिनी किमपि उदाहरणं स्वीकृत्य वदति वा भगिनी? तत्र प्रथमाविभक्तौ पदद्वयं स्वीकरोतु यत्र भेदः सुलभतया दर्शितुं शक्नुमः, भेदः कः इति दर्शितुं शक्नुमः. तत्र
स्त्रीलिङ्गे वा महोदय?
स्त्रीलिङ्गे स्त्रीलिङ्गं पदम् अपि नपुंसकलिङ्गपदम्.
नमस्ते महोदय.
नमस्कारः महोदय. लक्ष्मी भगिनी नमस्कारः. नमस्कारः. किं भगिनि वदतु? वाच् शब्दः अस्तु. न किन्तु एकमेव तत्र तकारान्तपदम् इति एव स्वीकरोतु. तत्र सरित् अपि जगत् इति स्वीकरोतु. तत्र भेदः कुत्र भवति
एकवारं वदामि वा महोदय?
अस्तु अस्तु वदतु भगिनि. अस्तु सरित् वदतु, तदनन्तरं जगत्. इदानीं केवलं जगत् वदतु. जगत् जगत् वदतु.
तकारान्तः जगत् शब्दः नपुंसकलिङ्गे हलन्तशब्दानां नपुंसकलिङ्गरूपं. जगत् जगति जगन्ति जगत् जगति
जगति इदानीम् इदानीं तत्र सरित् इति सरित् इति स्वीकरोतु.
स्त्रीलिङ्गे प्रथमविभक्त्यां सरित् सरितौ सरितः सरितं सरितौ सरितः सरिता सरिद्भ्यां सरिद्भिः.
इदानीं तत्र सरिता सरिद्भ्यां सरिद्भिः अपि जगत् मध्ये किम् अस्ति?
जगत् जगति जगन्ति.
तृतीया किम् अस्ति?
जगन्ति.
न तृतीया जगत् पदस्य तृतीया विभक्ति
जगता
जगद्भ्यां जगद्भिः
जगद्भिः.
सरित् पदस्य तृतीया विभक्ति
सरिद्भ्यां सरिद्भिः.
भेदः अस्ति वा अत्र?
न महोदय
नास्ति. किन्तु प्रथमविभक्तौ भेदः अस्ति वा?
सरितौ सरितः अस्ति नपुंसकलिङ्गे जगत् जगति जगन्ति
जगत् जगति जगन्ति इति अस्ति. अपि तत्र यदि तत्र मरुत् पश्यामः तत्र मरुत् शब्दस्य रूपं किम् अस्ति?
मरुत् मरुतौ मरुतः.
हा मरुत् मरुतौ मरुतः पुल्लिङ्गे स्त्रीलिङ्गे तकारान्तपदस्य मरुत् इति तकारान्तपुल्लिङ्गपदं मरुत् मरुतौ मरुतः. सरित् इति स्त्रीलिङ्गपदे प्रथमविभक्तिरूपं सरित् सरितौ सरितः. किन्तु तकारान्त जगत् नपुंसकलिङ्गपदे किं भवति? जगत् जगत्
जगत् जगति जगन्ति
जगन्ति इति. अतः तत्र भेदः वर्तते खलु?
भेदः आम् महोदय.
हा तत्र पुल्लिङ्गे स्त्रीलिङ्गे रूपं समानं भवति किन्तु नपुंसकलिङ्गे तकारान्तपदं भवति चेत् अपि तत्र भेदः अस्ति. अस्तु भगिनि समीचीनम्. इदानीं तत्र अतः तत्र अग्रे केवलं तत्र किं किम् अस्ति इति शीघ्रतया पश्यामः. तत्र इदानीं तत्र अभ्यासार्थमेव अतः इदानीं तत्र भेदा भगिनी इदानीं तत्र दिक् दिश् पदस्य रूपाणि एकवारं उद्दिश्यति. हा स्त्रीलिङ्गपदम् एकवारं वदति वा भगिनि?
दिश् शकारान्त स्त्रीलिङ्गपदं दिश् प्रातिपदिकं प्रथमाविभक्ति दिक् एवं दिग् दिक् दिग् दिशौ दिशः दिशं दिशौ दिशः दिशा दिग्भ्यां दिग्भिः दिशे दिग्भ्यां दिग्भ्यः दिशः दिग्भ्यां दिग्भ्यः दिशः दिशोः दिशां दिशि दिशोः दिक्षु.
समीचीनं भगिनि. समीचीनं धन्यवादः गीताञ्जलि भगिनी. इदानीं तत्र अप्सरस् इति सकारान्तपदम्
अप्सरस्तु स्त्रीलिङ्गे सकारान्तपदम् अस्ति. अप्सराः अप्सरसौ अप्सरसः अप्सरसम् अप्सरसौ अप्सरसः अप्सरसा अप्सरा अप्सरोभ्याम् अप्सरोभिः अप्सरसे अप्सरोभ्याम् अप्सरोभ्यः अप्सरसः अप्सरोभ्याम् अप्सरोभ्यः अप्सरसः अप्सरसोः अप्सरसाम् अप्सरसि अप्सरसोः अप्सरसु सप्तमी अप्सरसु सम्बोधन अप्सराः अप्सरसौ अप्सरसः
अप्सरसः इति. अतः तत्र सकारान्तपदं किञ्चित् तत्र भिन्नम् अस्ति. तत्र अप्सराः इति प्रथमाविभक्ति एकवचनरूपं
नपुंसकलिङ्गस्ति तु आह नास्ति केवलं
सत्यं सत्यं तत्र मनः मध्ये आह मनः नास्ति मनः एव अस्ति. अत्र तु अप्सराः इति अस्ति. समीचीनम्.
अत्र तु महोदय एकवचने तु आह अस्ति बहुवचने तु अह अस्ति महोदय.
तत्र बहु क्लेशः भवति खलु. अतः अप्सराः अस्ति अप्सरसः सन्ति
बहुवचने.
सत्यं भगिनि. तत्र ददाति इति तत्र अपि भवति खलु. तत्र ददति अपि ददाति तत्र एकवचने किं बहुवचने किम् इति क्लेशः भवति. तादृशम् अत्र अपि समीचीनं भगिनि. अस्तु अस्तु भवती एव अग्रे तत्र मनः इति मनस् इति पदस्य रूपाणि एकवारं पठतु भगिनि.
अहं वा महोदय. अस्तु मनस् शब्दः किल मनस् मनसि
मनः
हा सकारान्त नपुंसकलिङ्गमस्ति सा मनस् मनः मनसि मनांसि मनः मनसि मनांसि मनसा मनोभ्यां मनोभिः मनसे मनोभ्यां मनोभ्यः मनसः मनोभ्यां मनोभ्यः मनसः मनसोः मनसां मनसि मनसोः मनस्सु सम्बोधनते हे मनः हे मनसि हे मनांसि.
समीचीनं भगिनि धन्यवादः. अस्तु तर्हि तत्र केवलं तत्र सुजाता भगिनी इदानीं तत्र शकारान्त स्त्रीलिङ्गपदम् आशिष् इति अस्ति, तत्र तदपि एकवारं
पठतु। सकारान्तशब्दः विद्वस् शब्दः भवति वा महोदय? सकारान्त तु विद्वान्,
विद्वस्, हा, पुल्लिङ्गे विद्वस्, विद्वान् विद्वांस, विद्वांस विद्वांसः इति,
हा, सत्यम्, अस्तु।
अतः तत्र तत्र सकारान्तपदं तत्र
बहुवचने अस्ति,
हा, किन्तु तत्र विद्वांसः इति बहुवचने अस्ति, किन्तु किन्तु तत्र सकारान्तस्य पुल्लिङ्ग एकमेव पदम् अस्ति इति न वक्तुं शक्नुमः। अत्र भिन्नभिन्नपदानि सन्ति सकारान्तप्रातिपदिकम् एव पुल्लिङ्गे। एतत् यत् एतदस्ति सामान्यरूपं, तत्र सकारान्तपुल्लिङ्गरूपं विद्वान् विद्वस् इति, तत्र
बहवः रूपाणि,
सकारान्तपदमेव पदानि अनेकानि सन्ति, हा, अतः तत्र एतत् सामान्यरूपाणि, तत्र येषां ज्ञानम् अस्ति चेत् बहु लाभः इति तावदेव। सर्वं तु न ज्ञातुं शक्नुमः, किन्तु यत् बहुवारं पश्यामः तस्य ज्ञानम् अस्ति चेत् लाभः इति चिन्तनम्।
महोदय, तत्र सकारान्त पुंलिङ्ग विद्वस् अपि भवत् किञ्चित् समानता अस्ति महोदय तत्र,
न न भगिनि, विद्वान् किन्तु विद्वांसः इति अस्ति, तत्र भवतः इति अस्ति खलु,
हा हा, समीचीनं, विद्वस् अपि च भवत् तकारान्त अपि अत्र सकारान्त, किन्तु रूपे
महोदय सकारान्त पुल्लिङ्ग वेद शब्दः,
आमां भगिनि, आमाम्, अनेकानि पदानि सन्ति, किन्तु किन्तु वयं केवलं तत्र यदि तत्र चिन्तनम् एतदस्ति, तत्र सरलरूपाणां कण्ठस्थीकरणं यदि भवति चेत् तदनन्तरम् अस्तु, तत्र एतत् किञ्चित् विशेषम् अस्ति, किन्तु अहं सरलरूपं जानामि, अतः अस्मिन् विशेषरूपे किं परिवर्तितम् इति दृष्ट्वा तस्यापि कण्ठस्थीकरणं कर्तुं शक्नुमः। किन्तु किन्तु यदि तत्र सरलरूपाणां कण्ठस्थीकरणं न अभवत् तत्र किं भवति, तत्र ओ अहम् एतदपि कण्ठस्थीकरण एतस्यापि कण्ठस्थीकरणं करोमि अपि तदपि करोमि वा, अतः इति तत्र, हा, अतः सुलभम् इति न भवति खलु, तावदेव। अतः तत्र अस्मिन् करपत्रे यदस्ति तस्य कण्ठस्थीकरणं कुर्मश्चेत् लाभः, तावदेव। किन्तु सर्वं ज्ञास्यामः इति न, किन्तु तेन अन्येषां पदानां विभक्तिरूपाणि सुलभतया ऊहां कर्तुं शक्नुमः इति प्रायशः।
अस्तु महोदय,
अस्तु, सुजाता भगिनी, इदानीं तत्र
नमस्कारः महोदय। शकारान्तस्त्रीलिङ्गः आशिष् शब्दः, आशीः आशिषौ आशिषः, आशिषम् आशिषौ आशिषः, आशिषा आशिर्भ्याम् आशिर्भिः, आशिषे आशिर्भ्याम् दीर्घैकार अस्ति, क्षम्यतां महोदय, आशिषे आशिर्भ्याम् आशीर्भ्यः, आशिषः आशीर्भ्याम् आशीर्भ्यः, आशिषः आशिषोः आशिषाम्, आशिषि आशिषोः आशिषु आशिषु आशिषु।
हा, समीचीनं भगिनि, हा, तत्र एतत् पदम् अहं चिन्तयामि तत्र बहु एतत् पदं बहु कष्टकरम् अस्ति, यतोहि तत्र शकारद्वयम् अस्ति खलु, एकस्य अनन्तरं
शकारः शकारः,
हा, अतः तत्र तत्र सर्वेषां कृते एतद् कष्टकरम् एव। अस्तु तर्हि, अस्तु, तत्र शकारान्तधनुशब्दस्य रूपाणि एकवारम् उक्त्वा गीतासोपानं गच्छामः तत्र इदानीं तत्र मधु महोदय धनुः इति पदस्य रूपाणि एकवारं वदति वा महोदय
पदिकं धनुः धनुषि धनुंषि धनुः धनुषि धनुंषि धनुषा धनुभ्यां
तत्र द्विवचने किम् उक्तं भवता
द्विवचनं धनुषी
धनुंषि समीचीनं महोदय
धनुंषि धनुषा धनुभ्यां धनुभिः
धनुर्भिः
धनुषे धनुर्भिः क्षम्यतां धनुर्भिः धनुषे धनुर्भ्यां धनुर्भ्यः धनुषः धनुर्भ्यां धनुर्भ्यः धनुषः धनुषोः धनुषां धनुषि धनुषोः धनुषु धनुः सम्बोधनं धनुः धनुषि धनुंषि
धनुषि धनुंषि
धनुषि
धनुषि धनुंषि अस्तु महोदय समीचीनं धन्यवादः महोदय शुभदा भगिनी नमस्कारः नमस्कारः अस्तु तर्हि इदानीं तत्र गीतासोपानं इदानीं तत्र वयं पाठः यः अस्ति तत्र त्रयोदशे पुटे तत् पठितवन्तः किन्तु इदानीम् अभ्यासे तस्य विषये एव पाठस्य विषये प्रश्नाः सन्ति तत्र षोडशे पुटे अतः तद् इदानीं तम् अभ्यासम् इदानीं कुर्मः तत्र करोति लक्ष्मी भगिनी आरम्भं करोति वा
पुटसङ्ख्या का महोदय
पुटसङ्ख्या षोडश पुटं
षोडश अस्तु महोदय एकनिमिषं
षोडश पुटे अभ्यासः अस्ति किन्तु अभ्यासस्य विषयः अस्ति पाठः यः पाठः त्रयोदशे पुटे अस्ति त्रयोदशे पुटे पाठः अस्ति पाठस्य विषये प्रश्नाः सन्ति इदानीं षोडशे पुटे यदि तत्र प्रायशः तत्र सर्वे तत्र सम्यक्तया न स्मरन्ति इति चेत् एतदपि कर्तुं शक्नुमः तत्र प्रश्नाः तत्र षोडशे पुटे प्रश्नाः
पाठस्य आधारेण एतेषां प्रश्नानाम् उत्तराणि लिखत कानि नवाम्बसा पूर्णानि भवन्ति सरितः सरांसि च नवाम्बसा पूर्णानि भवन्ति
समीचीनं भगिनि इदानीं तत्र समीचीनम् इदानीं तत्र सरितः सरांसि इति सरितः इति बहुवचने अस्ति एकवचने किम् एकवचने अस्ति समीचीनं सरांसि इति बहुवचने
सरांसि नपुंसकलिङ्गपदं सरः सरसि सरांसि
बहु समीचीनं भगिनि इदानीं तत्र पूर्णानि भवन्ति इति स्थाने पूर्णं भवति इति अस्ति चेत् तत्र किं भवति सरित् नवाम्बस तत्र सरः केवलं पूर्णं भवति चेत् तत्र सरः
नवाम्बसा पूर्णं भवति
इदानीं सरित् इति अस्ति चेत् सरित् नवाम्बसा किं भवति केवलं सरित् स्वीकरोतु सरित् नवाम्बसा
पूर्णा भवति
पूर्णा भवति यतोहि तत्र विशेषणम् अस्ति समीचीनं भगिनि सरित् नवाम्बसा पूर्णा भवति सरः नवाम्बसा
पूर्णानि भवन्ति
सरांसि पूर्णानि भवन्ति समीचीनं भगिनि अस्तु समीचीनम् अस्तु अग्रे तत्र अस्तु शोभा भगिनी, अग्रे द्वितीयप्रश्नः।
महोदय, अनावृष्ट्या काः सम्भवन्ति? अनावृष्ट्या आपदः सम्भवन्ति।
अनावृष्ट्या आपदः सम्भवन्ति, एकवचने?
एकवचने आपत् इति, आपद् इति प्रातिपदिकं तकारान्त शब्दः, आपत् इति एकवचने, आपदः इति बहुवचने,
आपत् अथवा आपत् सम्भवति,
आपत् सम्भवति,
सम्भवति, समीचीनम्। अपि अनावृष्ट्या इति स्थाने तत्र विभक्ति का? तत्र
तृतीयविभक्ति, अनावृष्टिः इति।
अतः तत्र बहुवचने रूपं किं?
मत्या, मत्योः, एकनिमिषं महोदय।
समीचीनं भगिनि, तत्र मति, मति शब्दवत् इति,
मतिः,
मत्या, मतिभ्यां,
भीः, मतिभिः, अनावृष्टिभिः,
अनावृष्टिभिः, तत्र मतिभिः एव, तत्र नदी अस्ति चेत् तत्र प्रायः किन्तु अत्र तु तत्र अनावृष्टिभिः
भीः भवति इति मन्ये।
समीचीनं भगिनि, अस्तु समीचीनं। अस्तु, तत्र अतः तदपि जानीमः, तत्र किं, तत्र काः सम्भवन्ति, अतः आपदः सम्भवन्ति काः इति स्त्रीलिङ्गे अस्ति, काः
तत्र अनावृष्ट्या आपत् सम्भवति, अपि च अनावृष्टिभिः आपदः सम्भवन्ति इति भवितुमर्हति।
तत्र तृतीया अस्ति माध्यमम् अथवा अत्र प्रायशः कारणम् अनावृष्टिः अस्ति इति आपत् इति भवति। समीचीनं भगिनि, अस्तु अग्रे श्रीप्रिया भगिनि।
नमस्ते महोदय।
नमस्कारः भगिनि।
पर्यावरणप्रदूषणेन किं परिवर्तते? पर्यावरणप्रदूषणेन समग्रमपि जगत् परिवर्तते।
पर्यावरणप्रदूषणेन तत्र समग्रमपि, तत्र अपि तस्य पूर्वमपि किञ्चित् दत्तमस्ति भगिनि, तदपि
ऋतूनां गतिविगतयः परिवर्तिताः भवन्ति।
तदपि तत्र गतिविगतयः तत्र परिवर्तिताः भवन्ति, तत्र एकवचने किं भवति तत्र? गतिविगतिः परिवर्तिता भवति। समीचीनं भगिनि, समीचीनं भगिनि, अस्तु। अतः तत्र अपि पर्यावरण प्रदूषणेन इति, तत्र यदि पदद्वयम् इति वक्तुम् इच्छामः तत्र किं भवति?
पर्यावरणस्य प्रदूषणेन।
समीचीनं, षष्टि, पर्यावरणस्य प्रदूषणेन, समीचीनं भगिनि, धन्यवादः। अस्तु ललिता भगिनि अग्रे।
जलस्य अभावेन काः शुष्यन्ति? जलस्य अभावेन सरितः शुष्यन्ति। सरितौ सरितः काः बहुवचन स्त्रीलिङ्गे अस्ति, अतः सरितः बहुवचनं।
धन्यवादः, समीचीनम्, अस्तु अग्रे शुभदा भगिनि। वियति इति,
वियति काः प्रकाशन्ते? वियति तडितः प्रकाशन्ते।
तडितः प्रकाशन्ते, एकवचने वियति, प्रकाशते ताम्। इदानीं तत्र तां पश्यतु इति भवति चेत् तत्र किं भवति? तडित् इति पदस्य द्वितीयविभक्तिरूपम् एकवचने, तां पश्यतु, हा तडितं, तां तडितं पश्यतु, तत्र बियति तडि तडितः अथवा तडितः प्रकाशन्ते अथवा तडित् प्रकाशते तां तडितं पश्यतु समीचीनम् अस्तु. लक्ष्मी भगिनी अग्रे, लक्ष्मी भगिनी उक्तवती अस्तु. वंशी सुधा भगिनी अग्रे.
आम् महोदय. अतिवृष्ट्या किं सञ्जायते? अतिवृष्ट्या आपदः सञ्जायते वा?
अतिवृष्ट्या
आपदः सम्भवति वा?
आपदः पूर्वमस्ति अत्र. विपत् विपत् सञ्जायते,
विपत् सञ्जायते. अस्तु, विपत् अपि विपद्
तत्र किमर्थं तत्र किं तत्र किं सञ्जायते इति दत्तमस्ति तत्र. तत्र अन्यत् रूपमपि
तत्र अनावृष्ट्या तु आपदः सम्भवति इति उक्तवान् तत्र कथायाम्. अतिवृष्ट्या विपत् सञ्जायते इति उक्तवान् महोदय.
अतः तत्र प्रश्नं तत्र प्रश्नरूपं किं भवति? अतिवृष्ट्या आपद् सञ्जायते इति तत्र उत्तरस्य उत्तरं किम् इति जानीमः चेत् प्रश्नः कः भवति? अतिवृष्ट्या
अतिवृष्ट्या किं सञ्जायते किल तत्र
लिङ्गं जानीमः
का सञ्जायते आपद् विपद् सम्पद् एवं सर्वे स्त्रीलिङ्गपदानि अस्ति महोदय. आपद् स्त्रीलिङ्गमस्ति, विपत् स्त्रीलिङ्गं, सम्पद् अपि स्त्रीलिङ्गमस्ति.
स्त्रीलिङ्गमस्ति भगिनि, सत्यं. महालक्ष्मी अपि स्त्रीलिङ्गं पदं,
तत्र आपद सर्वे स्त्रीलिङ्गानि पदानि.
केवलं तत्र भगिनि तत्र पदस्य लिङ्गम् अस्ति, न तु तत्र खलु तत्र मित्रम् इति नपुंसकलिङ्गपदं, पुस्तकम् इति नपुंसकलिङ्गपदं, तत्र तस्य किमपि महत्वं नास्ति.
सरलतया यदि मनसि तिष्ठति तदेव.
सत्यं 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 भगिनि. अस्तु अग्रे गीताञ्जलि भगिनि. विषमयपदार्थ
विषमयपदार्थानां मेलनेन कानि प्रदूषितानि भवन्ति? विषमयपदार्थानां षष्टिमेलनेन तृतीय कानि तु नपुंसकलिङ्गं प्रदूषितानि भवन्ति? विषमयपदार्थानां मेलनेन जलसु स्रोतांसि प्रदूषितानि भवन्ति.
तत्र इदानीं तत्र प्रदूषितानि भवन्ति इति तत्र एकवचने किं भवति?
एकवचनम् अस्ति. मेलनेन किं भवति? किं प्रदूषितं भवति इत्युक्ते स्रोतः.
समीचीनं, स्रोतस् इति सकारान्तपदं, नपुंसकलि मनः मनसि मनांसि स्रोतः स्रोतसि स्रोतांसि
जलस्रोतः प्रदूषितं भवति.
अपि तत्र जलस्रोतः इति तत्र पदद्वयं कृत्वा जलस्य स्रोतः
प्रदूषितं भवति
समीचीनम्. अथवा जलस्य स्रोतांसि प्रदूषितानि भवन्ति. समीचीनं भगिनि. अस्तु अग्रे मधु महोदय.
बीजानां वपनेन का वर्धते? बीजानां
तत्र द्वितीयपरिच्छेदः अस्ति, तस्य पूर्वम् अन्तिमवाक्यं पश्यतु तत्र.
आं महोदय, बीज अस्तु कृषकः क्रमेण सस्य सम्पद् वर्धते. सस्य सम्पद् वर्धते एकवचने एव अत्र सस्य सम्पद्
सम्पद् इति कीदृशपदं लिङ्गं किं तत्र इदानीमेव वर्षिष्ठ भगिनी उक्तवती
श्रीलिङ्गपदं
अतः एव तत्र का वर्धते बीजानां वपनेन सस्य सम्पद् सस्य सम्पद् वर्धते सा एव वर्धते समीचीनं महोदय
महोदय तत्र सस्यसम्पद् समासपदमस्ति महोदय
तत्र समस्तपदं तत्र सस्यः इति प्रायशः अस्ति सस्यं वा अथवा तत्र नपुंसकलिङ्गे अस्ति वा सस्यः वा सस्यं वा कोऽपि स्मरति वा सस्यं वा सस्यम् इति पदस्य षष्टि किमस्ति न एकवचने अतः तत्र षष्टि बहुवचनं सुलभम् अस्ति सस्यानाम् इति न तत्र सस्यः सस्यः इति सस्यं सस्यम् इति खलु श्रीप्रिया भगिनी भवती उक्तवती नपुंसकलिङ्ग अकारान्त नपुंसकलिङ्गपदं खलु
एतत्
हा अतः तत्र षष्टि एकवचनरूपं सस्यस्य इति अत्र तु बहुवचनमेव समीचीनं भवति हा सस्यानां सम्पद् सस्यानां सम्पद् वर्धते
सम्पदः वर्धते किल तत्र
सम्पद् सम्पद् वर्धते वर्धते एकवचने अस्ति अतः
अस्तु आम् आम्
हा सम्पद् एकम् एका किन्तु सस्यानां सम्पद् इति
षष्टि तत्पुरुषक्रमः बहुवचने सस्यसम्पदां
हा सस्यसम्पदः सस्यसम्पदः वर्धते
षष्टि षष्टि अस्ति इति
ओ षष्टि अस्ति चेत् सम्पद् हा सम्पद् तदपि प्रायशः किन्तु अत्र प्रायशः तत्र षष्टि इति एव भवति इति मन्ये तत्र तदपि भवितुमर्हति अत्र
विद्याधनं तपोधनम् अस्ति
तादृश तादृश किन्तु सत्यं भगिनि सत्यं तदपि अन्यस्मिन् सन्दर्भे तदपि समीचीनं किन्तु अत्र प्रायशः या तत्र इच्छा प्रायशः तत्र षष्टि इति इच्छा अस्ति इति मन्ये अत्र अस्तु अग्रे उषा भगिनि
आम् महोदय जलबिन्दवः भुवि कथं निपतन्ति जलबिन्दवः भगवतः आशिषः इव भुवि निपतन्ति
कथं निपतन्ति भगवतः आशिष इव निपतन्ति समीचीनं भगिनि तत्र आशिषः आशिषः इति कीदृशपदम् स्त्रीलिङ्गपदं तत्र प्रातिपदिकं किम् अस्ति समीचीनं भगिनि अस्तु
यदि एकवचने
जल किन्तु किं भवति भुवि कथं निपतति किं निपतति अथवा कः निपतति
भगवान्
आशिः न भगवतः आशिः एव भगवान् इति न भगवतः इति आशिः इव
निपतति
निपतति किन्तु तत्र कर्तृपदं भुवि निपतति तस्य तस्मात् प्राक् किं भवति
जलबिन्दुः
जलबिन्दुः भुवि निपतति समीचीनं भगिनि तावदेव समीचीनम् अस्तु वेदा भगिनि अग्रे
अनावृष्ट्या किम् असाध्यं भवति अनावृष्ट्या कृषिकर्म
असाध्यं भवति.
हा तत्र कृषिकर्म इति तत्र
कर्मन् शब्दस्य
कर्मन् इति नकारान्तप्रातिपदिकं लिङ्गं किम् अत्र
कृषिकर्म कृषिकर्म कृषिकर्मौ कृषिकर्म किं किम् अस्ति किं कृषिकर्म स्त्रीलिङ्गपदं वा पुल्लिङ्गपदं वा
कर्म इति अस्ति चेत् तत्र कर्मन् इति उक्तवती
ओ नपुंसकलिङ्ग वा
कर्म कर्मणि कर्माणि
कर्माणि
कर्म कर्मणि कर्माणि समीचीनं भगिनि अस्तु अतः तत्र इदानीं तत्र पाठस्य विषये तत्र सर्वान् प्रश्नान् तत्र तत्र पठितवन्तः इदानीम् अग्रे गच्छामः तत्र अग्रिमे पुटे तत्र श्लोकरूपेण किञ्चित् अस्ति किन्तु तत् इदानीं तत्र प्रायशः अद्य त्यजामः अग्रिमे पुटे तत्र एक अन्यः पाठः अस्ति कथारूपेण अस्ति तद् तं पाठं पठामः तदनन्तरं तत्र अग्रिमे वर्गे एतान् श्लोकान् अपि पठामः किन्तु तत्र एकवारं तत्र यदि एतान् श्लोकान् पठामः तत्र पाठः सम्पूर्णतया तत्र न कर्तुं शक्नुमः इति मन्ये अतः अतः तत्र अद्य एतत् त्यजामः इदानीं तत्र अग्रे गच्छामः तर्हि तत्र
भगवतः षष्टिविभक्ति अस्ति प्रथमविभक्त्यां भगवान् अस्ति न महोदय
सत्यं भगिनि भवान् शब्दवत्
भवान् शब्दवत्
भवत् भवान् तत्र भवत् प्रातिपदिकं भगवत् अपि प्रातिपदिकं भगवत् इति प्रातिपदिकं वत् इति तत्र बुद्धिमत् बुद्धिमान् तादृशः धैर्य तत्र धैर्यवत् धैर्यवान् तादृशः धीरवान् धीरवान् तत्र अस्तु इदानीं तत्र अस्तु अतः तत्र हलन्तशब्दानाम् इदानीं तत्र द्वितीया तृतीया चतुर्थी विभक्ति इदानीं नूतनविषयः
महोदय एषः पाठः अहं पठितवन्तः वयं
अस्मिन् वर्गे न भगिनि अस्मिन् वर्गे न प्रायशः भवती तत्र रविवासरस्य वर्गे आगतवती मल्लिनाथः प्रसिद्धः मल्लिनाथः
न महोदय गतवर्षे वयं पठितवन्तः
गतवर्षे वा
पूर्वं
न महोदय
अस्मिन्
भगिनि भगिनि किन्तु तत्र प्रायशः भवत्यौ
पूर्वं
भवत्यौ द्वे तत्र रविवासरस्य वर्गम् आगतवत्यौ इति मन्ये पूर्वमेव पठितवन्तः
भवान्
अत्र न
प्रेषितवन्तः इतः पूर्वम्
इति वा अस्तु 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 किन्तु पठितवान् अस्तु अतः अतः अहम् अनेकान् प्रश्नान् पृच्छामि अस्तु सिद्धाः
नूतनवर्गे नास्ति
अतः अतः किं कुर्मः तत्र यदि प्रश्नः अस्ति चेत् ललिता भगिनीम् अथवा लक्ष्मी भगिनीं पृच्छामः अतः मनसि स्थापयतु अस्तु तर्हि अस्तु धन्यवादः भगिनी ललिता भगिनी स्मारितवती अस्तु सुजाता भगिनी आरम्भं करोति वा भगिनि
आं महोदय प्रयत्नाद्यतमानस्तु
अद्यतमानस्तु किञ्चित् अग्रे पश्यामः
हलन्तशब्दाः द्वितीया तृतीया चतुर्थी विभक्त्यः एतां कथाम् उच्चैः पठता अवगच्छता च पुरा आन्ध्रप्रदेशे देवशर्मनाम कश्चन धीमान् ब्राह्मणः आसीत्। तस्य एकः एव पुत्रः देवशर्मा पुत्रस्य मल्लिनाथः इति नाम कृतवान्। पिता सर्वशास्त्रविद् विद्वान् च आसीत्। किन्तु पुत्रः मल्लिनाथः तु अलसः निरक्षरश्च। पुत्रं कथमपि बुद्धिमन्तं शास्त्रविद्वांसं च कर्तुं देवशर्मा महान्तं प्रयासं कृतवान्। पुत्रं पाठयितुम् अन्यान् विदुषः नियोजितवान् अपि, तदापि मल्लिनाथः किमपि नैव अधीतवान्।
अस्तु भगिनि, धन्यवादः
महोदय। तत्र कथायाः शीर्षिका प्रयत्नात् यतमानः अस्तु इति अस्ति वा?
हा इति प्रायशः भगिनि, हा यतमानः अस्तु, प्रयत्नात् यतमानः, हा यतमानः प्रायशः तु इति प्रायशः खलु भगिनि,
यतमानः तु। अहं चिन्तितवती तु इति चिन्तितवती, किन्तु समस्तपदम् अस्ति इति कृत्वा किमपि लोपः अभवत् वा इति।
हा किन्तु तत्र मानः
मानः तु मानस्य सकारः
द्रष्टव्यमस्ति भगिनि, किन्तु तत्र किन्तु तत् प्रायशः तद् इति चिन्तयामि, किन्तु द्रष्टव्यमस्ति भगिनि। एतत्तु भगवद्गीतायाम् अस्ति, भगवद्गीतायाम् अस्ति इति, एतत् तत्र कुत्र इति न जानामि। तत्र किन्तु अत्र अस्ति इति तत्तु सत्यं, तत्र प्रयत्नात् अध्यमानः तु योगी संसुद किल्बिषम् इति किमपि अस्ति तत्र, किन्तु तत्र न स्मरामि, किन्तु पश्यामः अथवा अन्य कोऽपि तत्र अन्वेषणं कृत्वा वदतु। अस्तु तर्हि इदानीं तत्र तत्र स्थूलक्षरैः तत्र यत् लिखितं तत्तु तत्र द्वितीया वा तृतीया वा चतुर्थी वा इति दत्तमस्ति, किन्तु यदि वयं पठामः तस्मिन्नेव समये तत्र चिन्तयन्तु तत्र तत्र द्वितीयविभक्ति वा तृतीयविभक्ति वा चतुर्थीविभक्ति वा इति तत्र किञ्चित् चिन्तनं भवेत्। अस्तु तर्हि अग्रे एकवारं तत्र सम्पूर्णतया पठामः, हा एकवारं पठितुं शक्नुमः। अस्तु इदानीं तत्र शुभदा भगिनी अग्रे।
कालः गतः, मल्लिनाथः वयसा वपुषा च युवा सञ्जातः, कयाचित् विदुष्या कन्यया सह तस्य विवाहः प्रवृत्तः। एकदा मल्लिनाथः श्वशुरगृहं गन्तुम् उद्युक्तः आसीत्। तदा तस्य पिता शास्त्रविद्भिः श्यालैः, मूर्खः मम पुत्रः उपहसितः भविष्यति इति विचार्य तं बहुधा उपदिष्टवान्। ततः मल्लिनाथः श्वशुरगृहं प्राप्नोत्। तत्र द्वित्रैः दिनैः एव श्यालैः ज्ञातं यत् आवृत्तः निरक्षरः अस्ति इति। ते कठोरवाक्भिः मल्लिनाथं परिहसितवन्तः। तेषां परिहासवचांसि श्रोतुम् अशक्ता मल्लिनाथस्य पत्नी पत्या सह स्वगृहं प्रति प्रस्थितवती।
समीचीनं भगिनि, धन्यवादः। इदानीं तत्र लक्ष्मी भगिनी अग्रे।
महोदय, तत्र षष्ठमाध्याये श्लोकमस्ति महोदय, पञ्चान् पञ्च 45 श्लोकमस्ति
पञ्चचत्वारिंशत्
पञ्चचत्वारिंशत् श्लोकं प्रयत्नाद्यतमानस्तु योगी संशुद्धिकिल्बिषः अनेकजन्म संसिद्धः ततः याति तत्र प्रयत्नाद्यतमानः तु एव भवति महोदय
प्रयत्नाद्यतमानः तु योगी संशुद्धकिल्बिषः अस्तु समीचीनं भगिनि धन्यवादः धन्यवादः भगिनि अस्तु अस्तु समीचीनं धन्यवादः भगिनि अतः तत्र एतद् लेखनीयमस्ति
6.45
नो चेत् तत्र मनसि न भवति अस्तु धन्यवादः
अनेक अनेकप्रयत्नात् अपि इति तस्मिन् अर्थे भवति वा महोदय प्रयत्नात् यतमानः तु
यतमानः तु प्रयत्नात् यतमानः य
प्रयत्नात् इति अधिकं प्रयत्नं कृतवान् अपि
तत्र किञ्चित् चिन्तयित्वा वदामि भगिनि इदानीं न जानामि
अस्तु महोदय
अस्तु तर्हि तत्र
अहं पठामि
अस्तु लक्ष्मी भगिनी पठतु भगिनि
मार्गमध्ये कुत्रचित् मल्लिनाथः पन्थानम् उभयतः स्थितान् पलाशशाकिनः दृष्टवान् तेषु मनोहराणि पुष्पाणि विकसितानि आसन् तानि दृष्ट्वा सः नितरां तुष्टः अभवत् पुष्पदर्शनेन तुष्टं पतिं पत्नी उक्तवती आं पलाशकुसुमं मनोहारी एव परम् अविद्यावन्तं भवन्तं यथा तथैव निर्गन्धम् इदं पलाशपुष्पमपि जनाः निष्प्रयोजनं मन्यन्ते इति पत्न्याः तया वाचा मल्लिनाथः जागरितः अभवत् स्वस्य अज्ञानविषये सः लज्जाम् अन्वभवत् ततः सः शास्त्रसम्पदं कथमपि उपार्जितुं मनसा निश्चितवान् पत्नी स्वगृहं प्रापय्य ज्ञानार्जनाय वाराणसीम् अगच्छत् च
अगच्छत् च समीचीनं भगिनि अतः मल्लिनाथः इदानीं तत्र वाराणसीनगरं गतवान् अस्ति अस्तु अग्रे मधु महोदय
मल्लिनाथः तत्र कञ्चित् यशस्विनं सर्वशास्त्रविदं पण्डितम् उपगत्य आत्मानं शिक्षितुम् अयाचत तस्य विनयेन सम्यय वाचा च आकृषः सः आकृष्टः सः करुणार्द्रमनाः पण्डितः तं स्वगृहं नीत्वा पाठयितुम् आरब्धवान् प्रतिदिनं भवती भोजने तस्मै किञ्चित् निम्बतैलम् अपि परिवेशयतु तस्मिन् दिने सः निम्बतैलस्य निक्तत्वम् अनुभवति तिक्तत्वम् अनुभवति तदा मां सूचयतु इति सः पत्नीम् आदिशत् सा तथैव कृतवती अध्ययन एव अध्ययने एव दत्तचित्तः मल्लिनाथः कदापि भोजनेन रुचिं
न भोजने
भोजने भोजने रुचिं न लक्षितवान्।
हा तत्र अध्ययने एव दत्तचित्तः मल्लिनाथः कदापि भोजने रुचिं न लक्षितवान्। अस्तु महोदय, धन्यवादः। समीचीनं, हा अस्तु, न लक्षितवान् अस्तु। अग्रे गीताञ्जलि भगिनि।
आं महोदय, मल्लिनाथः महान्तं कालं तत्र यापितवान्। वेदान् उपनिषदः इतरशास्त्राणि च महता परिश्रमेण अधीतवान्। एकदा सः गुरुपत्नीं पृष्टवान्, अम्ब अद्य भोजने कथमपि निम्बतैलं पतितमस्ति इति प्रतीयते, कथम् एतत् सञ्जातम् इति। ततः सः भोजनं परिसमाप्य गतवान्।
हा समीचीनं भगिनि, धन्यवादः। अस्तु अग्रे श्रीप्रिया भगिनि।
गुरुपत्नी सर्वं वृत्तान्तं पतिं न्यवेदयत्। सः नितरां तुष्टः अभवत्। सः मल्लिनाथम् आहूय, वत्स अद्य तव अध्ययनं समाप्तिं गतम्। वस्तुतः प्रतिदिनमपि तव भोजने निम्बतैलं परिविष्टम्, परन्तु अध्ययने एव दत्तचित्तः त्वं भोजनस्य रुचिम् एव न लक्षितवान् एतावन्ति वर्षाणि। तादृशी अध्ययनमग्नता आसीत् तव। त्वम् अद्य पण्डितः असि, त्वां सर्वे अङ्गीकुर्वन्ति। विद्यार्जनाय यशसे च बहवः विद्यार्थिनः त्वाम् उपगमिष्यन्ति। इतः परं त्वं स्वगृहं गन्तुमर्हसि इति उक्तवान्।
हा धन्यवादः भगिनि, अस्तु अग्रे उषा भगिनि।
आं महोदय, मल्लिनाथः महान्तम् आनन्दम् अनुभूतवान्। सः तस्मै महाज्ञानिने गुरवे दक्षिणां प्रदाय ततः आशिषः च लब्ध्वा प्रतिनिवृत्तः। ततः सः विविधशास्त्रविद्विदः बहून् विदुषः वादे पराजित्य पारितोषिकाणि प्राप्य श्वशुरगृहं गतवान्। श्यालान् श्वशुरं चापि
पराजित्य
पत्न्या सह सुखेन जीवनं यापितवान्। गच्छता कालेन सः बहून् ग्रन्थान् रचितवान्। अयमेव मल्लिनाथः कालिदासस्य कृतीनां पञ्चमहाकाव्यानां च टीकाः अरचयत्।
एषः एव
पञ्चमहाकाव्यानां
एतत् सर्वं कृतवान्। एषः एव तत्र टीकाः अरचयत्। अतः एषः यस्य कथा एषा अस्ति, सः अस्ति प्रसिद्धः मल्लिनाथः, हा यः तत्र कालिदासस्य कृतीनाम् अपि पञ्चमहाकाव्यानां टीकाः अरचयत् इति। अतः तत्र मल्लिनाथस्य कथा इदानीं तत्र मूलविषयः अस्ति, तत्र द्वितीया तृतीया चतुर्थी विभक्तिः विभक्तयः। अस्तु तर्हि तत्र इदानीं पश्यामः, तत्र शोभा भगिनी आरम्भं करोति वा पङ्क्तिशः।
महोदय, पुरा आन्ध्रप्रदेशे देवशर्मा नाम कश्चन धीमान् ब्राह्मणः आसीत्। पुरा इति अव्ययपदम् अस्ति। आन्ध्रप्रदेशे सप्तमी देवशर्मा नाम कश्चन धीमान् इति धीमत् इति पदस्य
धीमत्
तत्र धीमत् इति पुंलिङ्गे इति एव भवत् भवान् इति धीमत् धीमान् इति
सत्यं सत्यं भगिनि. तत्र मत् इति अस्ति वत् इति अस्ति तत्र बुद्धिमत् बुद्धिमत् अपि बलवत् तत्र बुद्धिमत् बुद्धिमान् धीमत् धीमान्
धीमान्
बुद्धि यस्य सः बुद्धिमत् धी यस्य
सः धीमान् तत्र धी अपि बुद्धिः इति एव एकम् अर्थम् अस्ति
अपि तत्र अपि तत्र वत् इति भवति तत्र यथा भवत् मध्ये वत् इति अस्ति अत्र तु मत् इति अस्ति तत्र रूपद्वयमस्ति मत् वा वत् वा किन्तु तत्र प्रायशः सरलनियमः सरलः इति मन्ये तत्र मत् इति तत्र बुद्धिः अस्ति चेत् तत्र बुद्धिमत् यतोहि तत्र बुद्धिः अन्तिमवर्णः अकारः नास्ति फलः अस्ति चेत् फलवत् तत्र वत् यत्र अन्तिमवर्णः अकारः अस्ति तत्र वत् यत्र अन्तिमवर्णः अकारः नास्ति तत्र इकारः वा उकारः वा अस्ति चेत् तत्र मत् इति
मत् ओ अस्तु महोदय अकारः अस्ति चेत् एव वत्
इति नियमः अतः तत्र वत् इति तत्र किं तत्र धैर्यवत् तादृश
तत्र शक्तिमान् इति अस्ति किल
शक्तिमत् शक्तिमान् अपि तत्र देवशर्मा इति तत्र हलन्तपदं वा अजन्तपदं वा देवशर्मा
देवशर्मा इति अजन्तपदम् शर्मः इति किल
देवशर्मा न दत्तं शर्मन् इति अस्ति शर्मा इति तत्र योगिन् इति यथा अस्ति तत्र योगी तत् ईकारान्त तत्र नकारान्तपदं योगिन्
दीर्घ आकारः भवति किल तत्र महोदय
सत्यं तत्र योगिन् दीर्घ इकारः प्रथमाविभक्ति एकवचने योगी इति भवति गुणिन् अपि तत्र गुणिन् इति नकारान्त पुल्लिङ्गप्रातिपदिकं किन्तु प्रथमविभक्तौ गुणी इति दीर्घ ईकारः भवति अत्र शर्मन् इति अस्ति किन्तु तत्र प्रथमविभक्तौ शर्मा इति भवति
तत्र यदा वयं पश्यामः शर्मा इति दीर्घ आकारः भवति चेत् किं पदस्य
हलन्तपदं नकारान्तपदम् इति प्रायशः
दीर्घ आकार अपि नकारान्तपदं पुंलिङ्गे
पुल्लिङ्गं तत्र नकारान्तस्य प्रायशः तत्र सूचनमस्ति किं भगिनि समीचीनं भगिनि
अपि च राजन् राजा इति भवति
अतः तत्र शर्मन् शर्मा
शर्मन् शर्मा
परन्तु आत्मा तु नपुंसकलिङ्ग अस्ति
वा न न न पुल्लिङ्ग पुल्लिङ्गपदम् आत्मन्
आत्मा इति शब्दः अस्ति
आत्मा आत्मा इति पुल्लिङ्गपदं भगिनि
ब्रह्मा इति नपुंसकलिङ्ग अस्ति
ब्रह्मन् इति नपुंसकलिङ्गपदम् इति मन्ये तत्
ब्रह्मा
पुल्लिङ्गपदं ब्रह्मन् वा महोदय
तत्र
ब्रह्माणौ ब्रह्माणः पुल्लिङ्गपदे ब्रह्माणौ
ब्रह्मा इति अपि अस्ति किल ब्रह्मा इति
द्विवचने
पुल्लिङ्गे नपुंसकलिङ्गे भवति
रूपद्वयमस्ति इति मन्ये भगिनि
पुल्लिङ्गे नपुंसकलिङ्गे
अतः तत्र
किन्तु अस्तु विषयान्तरमस्ति किन्तु न न ब्रह्मा इति दीर्घ आकारः भिन्नः पद अर्थम् अस्ति ब्रह्मन् इति भिन्नः अस्ति किल
सत्यं सत्यं तत्र ब्रह्मदेवः भिन्नम् अपि ब्रह्मन् इति यदि वदामः तद् भिन्नम् अस्ति लिङ्गभेदः
ब्रह्मन् इति नपुंसकलिङ्गे भवति
इति सत्यं भगिनि अस्तु इदानीं तत्र देवशर्मा इति देवशर्मा आत्मापद अथवा आत्मापदम् इति स्वीकुर्मश्चेत् तत्र आत्मानः
देवशर्मा देवशर्माणौ रेप अस्ति तत्र न देव तालव्यषकारः अस्ति महोदय देवशर्मा हा भवति तत्र बाधा नास्ति देवशर्माणौ देवशर्माणः
हा इति रूपं समीचीनं भगिनि अपि पुनः नाम नामन् तदपि हलन्तपदं नामनि कर्म कर्मणि कर्माणि नाम नामनि नामानि
नाम्नि नाम्नि इति अपि अस्ति इति मन्ये नामनि नाम्नि द्वे अपि अस्ति मन्ये महोदय
अस्तु अस्तु भगिनि अस्तु अस्तु हा अस्तु
अपि च
कश्चन कः योगः चन कश्चन
कः योगः चन कश्चन तत्र श्चुत्वं विसर्गस्य लो सकारः भूत्वा श्चुत्वम् अभवत्
इदानीं धीमान् ब्राह्मणः
तत्र हा धीमान् इति तु भवान् इति भवति
तत्र धीमान् ब्राह्मणः आसीत् इदानीं धीमान् ब्राह्मणः बहुवचने किं भवति धीमन्तः ब्राह्मणाः समीचीनं
धीमान् धीमन्तौ धीमन्तौ धीमान् धीमन्तौ धीमन्तः धीमन्तः ब्राह्मणाः
हा समीचीनं भगिनि अस्तु अतः तत्र देवशर्मा इति एकः धीमान् ब्राह्मणः आसीत् हा इदानीम् अग्रे
तस्य एकः एव पुत्रः
हा इदानीं तत्र एतत् कुर्मः तत्र कस्य एकः एव पुत्रः
देवशर्मा नाम देवशर्मा
आत्मा इति अस्ति चेत्
तत्र अस्ति आत्मनः भवति देवः णत्वं भवति किल महोदय
सत्यं सत्यं भगिनि अतः
देवशर्मणः
देवशर्मणः एकः
एव पुत्रः
देवशर्मणः एकः एव पुत्रः समीचीनं भगिनि अग्रे
देवशर्मा पुत्रस्य मल्लिनाथः इति नाम कृतवान्
मल्लिनाथः इति नाम
कृतवान् तदेव किल तत्र
तावदेव
अस्तु पिता सर्वशास्त्रविद् विद्वान् च आसीत् किन्तु पुत्रः मल्लिनाथः तु अलसः निरक्षरश्च कार्यं न करोति तत्र पर्यायवाचकपदं न जानामि लेज़ी इति भवति
तत्र अलसः इति किम् अन्यत् किं भवति तत्र कार्यं न करोति इति तत्र अन्यत् किम् अस्ति मन्दः अस्ति इति प्रायशः वक्तुं च तदेव जानामि तत्र अन्यत् किं कोऽपि जानाति वा अन्यत् किम् अस्ति अलसः मन्दः इति अस्तु सः अलसः पुत्रः अलसः निरक्षरः
च निरक्षरः च
किन्तु तत्र पुत्रः एतादृशः पिता कीदृशः
पिता तु सर्वशास्त्रविद्
इत्युक्ते सर्वशास्त्रं जानाति ज्ञानमस्ति तत्र जानाति सर्वशास्त्रं जानाति इदानीं तत्र विद् इति पुनः हलन्तपदं सुहृद् इव सुहृदः अतः सुहृद् इति शास्त्रविद् एकवचने सर्वशास्त्रविद् इति एकवचने द्विवचने
सर्वशास्त्रविदौ सर्वशास्त्रविदः
हा इति समीचीनं भगिनि हा अपि पुनः तत्र विद्वान् इति तु जानीमः तत्र विद्वान् इति
तत्र विद्वस् इति आसीत्
विद्वांसः समीचीनं इति सः तु एतादृशः आसीत् सर्वशास्त्रविद् आसीत् विद्वान् अपि
आसीत्
किन्तु पुत्रः तादृशः नासीत् सः तु तत्र एतादृशः न केवलम् एतादृशः नासीत् किन्तु अलसः निरक्षरः अतः निरक्षरः इत्युक्ते तत्र अक्षरस्य ज्ञानं
नास्ति तत्र निर्णीति उपसर्ग अक्षरः च निरक्षरः च
अनर्थः इत्यस्य कृते निष्क्रियः इति शब्दः अस्ति महोदय
इति वा भगिनी अस्तु निष्क्रियः यः किमपि न करोति मन्दः अपि अस्तु अस्तु समीचीनं धन्यवादः भगिनि अग्रे भगिनि
पुत्रं कथमपि बुद्धिमन्तं शास्त्रविद्वांसं च कर्तुं देवशर्मा महान्तं प्रयासं कृतवान् तत्र पुत्रं तत्र द्वितीयविभक्ति भवति सर्वत्र महोदय पुत्रं कथम् अपि बुद्धिमन्तं बुद्धिमान् इत्यस्य बुद्धिमन्तम् इति द्वितीयविभक्ति शास्त्रविद्वांसं तत्र शास्त्रविद् इत्यस्य भवति वा शास्त्रविद्वान्
न इदानीं तत्र शास्त्रविद्वान् शास्त्रविद्वान् इति इदानीं
क्षम्यतां महोदय विद्वान् इत्यस्य विद्वांसम् इति भवति च कर्तुं देवशर्मा तत्र महान् इत्यस्य द्वितीया महान्तम् एकवचने महान्तं प्रयासं कृतवान्
हा महान्तं प्रयासं कृतवान् तत्र महान्तं प्रयासम् इति द्वितीयविभक्तौ अस्ति प्रथमविभक्तिरूपं किम् अस्ति
महान्
महान् अपि प्रयासम् इति
प्रयासः
महान् प्रयासः महान्तं प्रयासम् इति
तत्र विशेषविशेषणं
हा इति समीचीनं भगिनि अस्तु तत्र किमर्थं तत्र एतत् कृतवान् सः महान्तं प्रयासं किमर्थं कृतवान् सः
किमर्थं चेत् सः इष्टवान् पुत्रः अपि स्वस्य सदृशं बुद्धिमान् अपि शास्त्रविद्वान् भवतु इति भवेत्
चिन्तयित्वा
तस्य आशयः
अतः तत् कर्तुं तादृशं तादृशं तस्य सादृशं कर्तुं सः एतत् सर्वं तत्र महान्तं प्रयासं
प्रयासं कृतवान्
तत्र शास्त्रविद् इति दृष्टवन्तः पूर्वं खलु तत्र सर्वशास्त्रविद् अपि तत्र विद्वान् इति तत्र पुनः तत्र विद् योगः वत् तत्र तादृशं चिन्तितुं शक्नुमः किन्तु अत्र पदं भिन्नम् अस्ति तत्र विद्वस् इति पदम् अस्ति खलु
तत्र अजन्त अस्ति चेत् वत् इति भवति तत्र कथं
केवलम् अजन्त इति न केवलम् अकारः अस्ति चेत् वत्
क्षम्यताम् अजन्त इति क्षम्यताम् अकारः अस्ति चेत् तत्र विद्वस् इति अस्ति किल
विद्वस् इति अस्ति सत्यमेव किन्तु अर्थः तत्र सर्वशास्त्रविद् इति अस्ति किन्तु तत्र पूर्वं सर्वशास्त्रविद् इति एक पदम् आसीत् तदनन्तरं विद्वान् इति आसीत् इदानीं तत्र शास्त्रविद्वांसम् इति अपि अस्ति खलु
आम् महोदय किन्तु तत्र भवान् उक्तवान् किल वत् इति अकारः अस्ति अकारान्त अस्ति चेत् भवति इति तत्र किञ्चित् क्लेशः
न न तत्र अत्र पदं तु वत् इति नास्ति किन्तु अर्थः वत् इत्युक्ते तत्र तदस्ति इति अर्थे भवति खलु यस्य सः इति अर्थे यस्मिन् सः अतः तत्र शास्त्रविद् वत् इति तत्र तादृश अर्थः अस्ति तत्र विद्वांसः इत्युक्ते शास्त्रस्य ज्ञानं यस्य अस्ति सः शास्त्रविद्वान् इति
खलु समस्तपदम् अस्ति इति अवगच्छामि
तत्र विद्वांसः इति तु तत्तु तत्र विद्वांसः तत्र विद्वत् इति तत्र तयोः मध्ये भेदः अस्ति तत्र विद्वस् इति पदम् एव अत्र स्थापितमस्ति शास्त्रविद्वांसं मध्ये तत्र प्रथमविभक्तौ तु तत्र शास्त्रविद्वान् एव अस्ति अपि प्रातिपदिकं शास्त्रविद्वस् इति एव अस्ति, किन्तु अर्थः तत्र शास्त्रविद् शास्त्रस्य ज्ञानं यस्य सः इति.
अस्तु महोदय,
तावदेव. अस्तु, इदानीं तत्र पुत्रं
कृतवान्. तत्र पुत्रं पाठयितुम् अन्यान् विदुषः नियोजितवान् अपि.
इदानीं विदुषः,
विदुषः इति बहुवचने,
बहुवचनं बहुवचनं सत्यं. तत्र
विद्वान्
किन्तु विभक्ति का इदानीं?
पुत्रं पाठयितुं विदुषः, तत्र तत्र द्वितीया भवति महोदय. पुत्रं पाठयितुम् अन्यान् विदुषः इति द्वितीया भवति.
अन्यान् विदुषः नियोजितवान् अपि. अत्र तत्र क्रियापदं किम् अस्ति अत्र?
नियोजितवान् इति,
नियोजितवान् इति तत् सूचयति. अतः कर्तृपदं किम्?
सः नियोजितवान्. कः नियोजितवान् इत्युक्ते पिता.
देवशर्मा पिता नियोजितवान् अपि. पिता नियोजितवान् अपि. इदानीं तत्र किं कर्तुं नियोजितवान्?
क्षम्यतां, तत्र क्रियापदं तु अस्ति भवति किल,
नियोजितवान् नियोजितवान् इति
विशेषणं.
तत्र स्थापनीयम् अस्ति,
सत्यं अध्याहर्तव्यं महोदय.
सत्यं भगिनि, नियोजितवान्. कः नियोजित तत्र नियोजितवान् इति पिता नियोजितवान् अथवा देवशर्मा नियोजितवान् अस्ति. इदानीं तत्र किम् अथवा कम् अथवा कान् नियोजितवान् सः?
विदुषः.
तत्र
अन्यान् विदुषः, अतः कान्
इति. इदानीं तत्र एकवचने किं भवति? अन्यान् विदुषः, अन्यान् विदुषः इति तत्र तस्मिन्
अन्यविद्वान्
अन्यं तत्र. अस्तु, प्रथमाविभक्तिरूपं प्रथमतया वदतु. प्रथमाविभक्तिरूपं किम् अस्ति?
अन्यः विद्वान्, अन्यं किं भवति? अन्यं
विद्वांसम् इति,
विद्वांसम्. अस्तु महोदय,
अतः तत्र विद्वान् विद्वांसौ विद्वांसः
विद्वांसः. अस्तु, अन्यं
विद्वांसं विद्वांसौ विदुषः. तत्र अतः तत्र सकारान्तपदम् अस्ति, किन्तु तत्र षकारः अपि मध्ये आगच्छति तत्र. अतः अन्यान् विदुषः, तत्र कर्मपदं बहुवचने द्वितीयविभक्ति बहुवचनरूपं विदुषः. तान् नियोजितवान् तत्र पाठयितुं, पुत्रं पाठयितुं. सः अपि महान्तं प्रयासं कृतवान्. तत्र तस्य
अभवत्
अतः तत्र सः पुनः अन्यान् विदुषः. तत्र किमर्थम् अन्यान् विदुषः इत्युक्ते सः अपि विद्वान्.
क्षम्यतां महोदय, अन्यं द्वितीय द्विवचने अन्यौ अस्ति वा?
न, तत्र द्वितीयविभक्तिरूपम् अपेक्षितं खलु भगिनि? तत्र
एकवचने अन्यम् अन्यम् अन्यौ अस्ति वा कि अन्या?
सर्वे 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 इति अस्ति, सर्वः सर्वौ सर्वे, सिमिलर् टु दट्.
अन्यपुंसकलिङ्गमस्ति वा?
अत्र नास्ति पुल्लिङ्ग.
एकवचने एकवचनम् अन्यं, द्विवचने
ओके. ओ नरेश महोदय नमस्कारः, भवान् कदा आगतवान्?
विलम्बेन आगतवान्.
अस्तु अस्तु महोदय, अहं न तत्र अहं न ज्ञातवान् भवान् आगतवान् इति. इदानीमेव श्रुत्वा ओ अस्तु, नरेश महोदय अत्र अस्ति इति ज्ञातवान्. अस्तु, नमस्कारः महोदय. अस्तु अस्तु, तर्हि इदानीं
विदुषः किं पुंलिङ्गशब्दः किल? भवान्
न तत्र विद्वान् इति अस्ति खलु महोदय, विद्वान्. विद्वांसः इति विद्वांसः इति तत्तु पदं जानाति खलु, विद्वांसः पण्डितः, विद्वांसः पण्डितः यः शास्त्रं जानाति. किन्तु तत्र विद्वान् इति एकवचने अस्ति. तत्र एकवचने किमस्ति? विद्वान्. बहुवचने विद्वांसः इति अस्ति. इदानीं तत्र एतत्तु प्रथमाविभक्तिरूपम् अस्ति. इदानीं द्वितीयाविभक्तिरूपं विद्वान् इति पदस्य द्वितीयविभक्तिरूपम् अस्ति विद्वांसम्. किन्तु विद्वांसः इति बहुवचनरूपस्य द्वितीयविभक्तिरूपम् अस्ति विदुषः इति. तत्र प्रकोष्ठे बहवः विद्वांसः सन्ति, अहं तान् सर्वान् विदुषः पश्यामि अथवा नमस्करोमि. तत्र विदुषः शकारान्तपदम् इदानीं.
भवान् शब्दवत् भवति महोदय, भवतः इति द्वितीया भवति.
हा सत्यं, हा सत्यं भगिनि. हा किन्तु तत्र सकारस्य स्थाने शकारः अस्ति इदानीम्.
आं
तावदेव सत्यं. अस्तु अन्तिमवाक्यं भगिनि. तत्र
तथापि मल्लिनाथः किमपि नैव अधीतवान्. न एव.
हा तत्र
अधीतवान् इति
महान् प्रयासः अभवत्. किन्तु अनेकाः विद्वांसः प्रयत्नं
कृतवन्तः. तथापि ते अपि तं पाठयितुं सफलाः
न शक्नुवन्तः. अतः तत्र सः निरक्षरः एव इदानीम् समीचीनं भगिनि. अस्तु
तत्र अधीतवान् इति अधीतवत् इति.
हा तत्र अधीतवान् तत्र पठितवान् तत्र ज्ञातवान् इति अधीतवान् अधीतवत् समीचीनं भगिनि. धन्यवादः.
धन्यवादः महोदय.
अत्र तत्र यथा भवती उक्तवती तत्र बुद्धिमन्तं शास्त्रविद्वांसं महान्तं विदुषः तत्र सर्वमपि द्वितीयविभक्तौ अस्ति. अस्मिन् परिच्छेदे सर्वं द्वितीयविभक्तौ अस्ति. अस्तु तर्हि अग्रे
महोदय. यद्यपि देवशर्मा पाठयितुं प्रयत्नं कृतवान् तथापि मल्लिनाथः किमपि न एव अधीतवान् इति.
सत्यं भगिनि. यद्यपि तत्र यद्यपि देवशर्मा पुत्रं पाठयितुं
प्रयत्नं
महान्तं प्रयासं कृतवान् अन्यानपि पाठं पठितुं नियोजितवान् तथापि मलिनतः
किमपि न एव अधीतवान्.
हा अधीतवान् इति. समीचीनं भगिनि. अस्तु इदानीम् अग्रे ललिता भगिनी अग्रे पठति वा?
कालः गतः, मल्लिनाथः वयसा वपुषा च युवा सञ्जातः.
कालः गतः,
कालः गतः पुल्लिङ्ग् शब्दः कालः गतः प्रत्ययः अस्ति.
इत्युक्ते किं कालः गतः? तत्र क्रियापदं किम् अस्ति?
क्रियां प्रथमा अस्ति.
कालः गतः
पुल्लिङ्ग् एकवचने.
सत्यं सत्यं. किन्तु क्रियापदं
गतः गतौ गताः.
हा सत्यं भगिनि. किन्तु तत्र क्रियापदं किम् अस्ति अस्मिन् वाक्ये?
गतः.
गतः इति किन्तु साक्षात् क्रियापदम्
साक्षात् कालः गतः अस्ति.
हा कालः गतः अस्ति. हा गतः इति तत्र
विशेषमस्ति.
विशेषणम् अस्ति. कीदृशः कालः? गतः कालः.
गतः कालः.
हा इदानीं तत्र तद् अभवत्. तत्र बहु कालः कालः अतीतः.
कालः गतः आसीत्.
कालः गतः आसीत्. अतः तत्र अनेके वर्षाः तत्र इदानीं तत्र अनेकवर्षानन्तरम् इति किम् अभवत् इति तत्र किं भवति तदनन्तरं
मलिनातः वयसा वपुषा च युवा सञ्जातः
इदानीं तत्रापि
वयसा वपुषा
क्रियापदं नास्ति तत्र साक्षात् क्रियापदम्
वयसा वपुषा तृतीया अस्ति वा
इदानीं तत्र सञ्जातः कः सञ्जातः
मल्लिनाथः सञ्जातः कथं युवा सञ्जातः
युवा इति पदम्
युवा एकवचने अस्ति युवन् युवकः शब्दवत् युवा युवानौ युवानः नकारस्य शब्दः अस्ति
हलन्तपदं
हलन्तपदं
युवन् इति प्रायशः अस्ति प्रातिपदिकम् इति मन्ये युवन् अथवा युवान् एव अस्ति
युवन् अस्ति
युवन् अस्तु युवन् युवा सञ्जातः इदानीं तत्र
वपुषा
इति
अस्ति मनस्
एकनिमिषं भगिनि तत्र वपुषा इति अस्ति तत्र मूर्धन्यषकारः अस्ति खलु
मूर्धन्यषकारः
अतः मनः इव नास्ति खलु तत्र मनस् मध्ये समीचीनम् इदानीं तत्र धनुष् तत्र वपुषा इति
धनुः वपुः वपुः वपुषि वपुंषि एकवचने अस्ति अस्ति वा
नपुंसकलिङ्गपदम् अस्ति चेत् तदेव भवति तत्र वपुः इति नपुंसकलिङ्गपदम् इति मन्ये खलु
नपुंसकलिङ्गं वपुस् शब्दः महोदय वपुस् वयस् अपि नपुंसकलिङ्गं द्वयोः
वयस् इदानीं किन्तु तत्र वपुस् मध्ये तत्र वपुष् तत्र वपुस् इति अस्ति तत्र तु शकारः किन्तु वयः इति तत्र तु मनः इति तत्र शकारः एव भवति किन्तु द्वयमपि तत्र तृतीयविभक्तिरूपमेव वयसा वपुषा च
युवा
सञ्जातः इत्युक्ते किं तत्र वयसा युवा सञ्जातः वपुषा अपि युवा सञ्जातः इत्युक्ते
शरीरं
तत्र वयसः अपि वर्धनम् अभवत्
बालः नास्ति
युवकः अतः तत्र वयसा युवकः सञ्जातः वपुषा अपि तत्र युवकः सञ्जातः इत्युक्ते तत्र तं दृष्ट्वा वयं वक्तुं शक्नुमः एषः बालकः न एषः युवकः इति समीचीनं भगिनि अस्तु अग्रे
कयाचित् विदुष्या कन्यया सह तस्य विवाहः प्रवृत्तः
इदानीं तत्र
कयाचित्
इदानीं तत्र कस्य विवाहः प्रवृत्तः
मल्लिनाथस्य विवाहः विदुष्या कन्यया
विदुष्या कन्यया विशेषणविशेषभावः
विशेषणविशेषभावः तृतीया विभक्ति अस्ति सः इत्युक्ते
सः अस्ति इति कृत्वा सत्यं भगिनि तत्र एक प्रथमविभक्तौ किम् अस्ति रूपं
कश्चित्
न काश्चित्
विदुषा नो विदुषी कन्या
विदुषी कन्या काचित् विदुषी कन्या अस्ति तया सह
मल्लिनाथस्य विवाहः प्रवृत्तः
इदानीं तत्र मल्लिनाथः सः निरक्षरः किन्तु तस्य
निरक्षरः
सः शास्त्रं न जानाति.
तस्य पत्नी अक्षराभ्यासं
न न केवलम् अक्षराभ्यासं कृतवती इति न विदुषी अपि इति न विदुषी अस्ति सा कन्या विदुषी अस्ति तया सह तस्य विवाहः प्रवृत्तः अस्तु इदानीं समयः जातः अग्रिमे वर्गे तत्र किं भवति इति पश्यामः अस्तु तर्हि समीचीनम् अस्ति इदानीं तत्र भगिनी अन्ते तत्र शान्तिमन्त्रं वदति वा भगिनी
आं महोदय अस्तु ॐ भद्रं कर्णे विशृणुयाम देवाः भद्रं पश्येमाक्षवीर्यजत्राः स्थिरैरङ्गै सुष्ठु वागं सस्तनूभिः यशेम देवहितं यतायुः स्वस्ति नः इन्द्रो वृद्धस्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तारक्षो अरिष्ठनेमिः स्वस्ति नो सुखिर्भवतु ॐ शान्ति शान्ति शान्तिः धन्यवादः महोदय
धन्यवादः भगिनी
धन्यवादः.